ओम नमो भगवते वासुदेवाय। अथैकादशोऽध्यायः। श्री भगवान उवाच, बद्धो मुक्त इति व्याख्या गुणतो मेन वस्तुतः, गुणस्य माया मूलत्वान्न मे मोक्षो न बन्धनम्, शोकमोहौ सुखम् दुःखम् देहापत्तिश्च मायया, स्वप्नो यथात्मनः ख्यातिः संसृतिर्न तु वास्तवी। विद्या विद्ये मम तनु विद्युद्धव शरीरिणाम्, मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते। एकस्यैव ममांसस्य जीवस्यैव महामते, बन्धोऽस्या विद्यया नादिर्विद्यया च तथेतरः। अथ बद्धस्य मुक्तस्य वैलक्षण्यम् वदामि ते, विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि। सुपर्णावेतौ सदृशौ सखायौ यदृच्छयैतौ कृतनीडौ च वृक्षे, एकस्तयोखादतिपिप्पलान्न मन्यो निरन्नोऽपि बलेन भूयान्। आत्मानमन्यम् च स वेद विद्वा न पिप्पलादो न तु पिप्पलादः, यो विद्यया युक् स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः। देहस्थोऽपि न देहस्थो विद्वान् स्वप्नाद्यथोत्थितः, अदेहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग्यथा। इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च गृह्यमाणेष्वहम् कुर्यान्न विद्वान् यस्त्वविक्रियः। दैवाधीने शरीरेऽस्मिन् गुणभाव्येन कर्मणा वर्तमानो बुधस्तत्र कर्तास्मीति निबध्यते। एवम् विरक्तः शयने आसनाटनमज्जने दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु न तथा बध्यते विद्वांस्तत्र तत्रादयन् गुणान्। प्रकृतिस्थोऽप्यसंसक्तो यथा खं सवितानिलः, वैशारद्ये क्षया सङ्गशितया छिन्न संशयः। प्रतिबुद्धैव स्वप्नान्नात्वाद्विनिवर्तते, यस्य सुर्वीतसङ्कल्पा प्राणेन्द्रियमनोधियाम्। वृत्तया स विनिर्मुक्तो देहस्थोऽपि हि तद्गुणैः, यस्यात्मा हिंस्यते हिंस्रैर्येन किञ्चिद् यदृच्छया। अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः, नस्तु वीतन निन्देत कुर्वतः साध्व साधु वा। वदतो गुणदोषाभ्याम् वर्जितः समदृङ्मुनिः, न कुर्यान्न वदेत् किञ्चिन्न ध्यायेत् साध्व साधु वा। आत्मा रामो नया वृत्त्या विचरेद्यदवन्मुनिः, शब्दब्रह्मणि निष्णातो न निष्णायात् परे यदि, श्रमस्तस्य श्रमफलो यधेनुमिव रक्षतः। गाम् दुग्धदोहामसतीम् च भार्याम्, देहम् पराधीनमसत्प्रजाम् च, वित्तम् त्वतीर्थीकृतमङ्गवाचम् हीनाम् मया रक्षति दुःखदुःखी। यस्याम् न मे पावनमङ्गकर्म स्थित्युद्भव प्राणनिरोधमस्य, लीलावतारे स्थितजन्म वा स्यात् वन्ध्याम् गिरम् ताम् बिभ्रियान्न धीरः। एवम् जिज्ञासयापोह्य नानात्वभ्रममात्मनि, उपारमेत विरजम् मनो मय्यर्प्य सर्वगे। यद्यनीशो धारयितुम् मनो ब्रह्मणि निश्चलम्, मयि सर्वाणि कर्माणि निरपेक्षः समाचर। श्रद्धालुर्मे कथा शृण्वन् सुभद्रा लोकपावनीः, गायन्ननुस्मरन् कर्म जन्म चाभिनयन्मुहुः। मदर्थे धर्मकामार्था नाचरन् मदपाश्रयः, लभते निश्चलाम् भक्तिम् मय्युद्धव सनातने। सत्सङ्गलब्धया भक्त्या मयि माम् स उपासिता, स वै मे दर्शितम् सद्भिरञ्जसा विन्दते पदम्। उद्धव उवाच, साधुस्तवोत्तमश्लोकमतः कीदृग्विधः प्रभो, भक्तिस्त्वय्युपयुज्येत कीदृशी सद्भिरादृता। एतन्मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्प्रभो, प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम्। त्वम् ब्रह्म परमम् व्योम पुरुषः प्रकृतेः परः, अवतीर्णोऽसि भगवन् स्वेच्छोपात्त पृथग् वपुः। श्रीभगवानुवाच, कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम्, सत्यसारो न वद्यात्मा समः सर्वोपकारकः। कामैरहत धीर्दान्तो मृदुः शुचिर किञ्चनः, अनिहोमितभुक्षान्तः स्थिरो मच्छरणो मुनिः। अप्रमत्तो गभीरात्मा धृतिमाञ्जितसद्गुणः, अमानीमानतः कल्पो मैत्रः कारुणिकः कविः। आज्ञाय एवम् गुणान् दोषान् मया दृष्टान्नपि स्वकान्, धर्मान् सन्त्यज्य यः सर्वान् माम् भजेत स सत्तमः। ज्ञात्वा ज्ञात्वाथ ये वैमाम यावान यस्यास्मि यादृशः भजन्त्यनन्य भावेन ते मे भक्ततमा मताः मल्लिंग मद भक्त जन दर्शन स्पर्शन अर्चनम परिचर्या स्तुति प्रभव गुणकर्मानुकीर्तनम मत कथा श्रवणे श्रद्धा मदनुध्यानम उद्धव सर्वलाभोपहरणम दास्येनात्मनिवेदनम मज्जन्म कर्म कथनम मम पर्वानुमोदनम गीततांडव वादित्र गोष्ठी भिर्मत गृहोत्सवः यात्रा बलि विधानम च सर्ववार्षिक पर्वसु वैदिकी तांत्रिकी दीक्षा मदीय व्रत धारणम मम अर्चा स्थापने श्रद्धा स्वतः संहत्य चोद्यमः उद्यानोपवना क्रीडा पुर मंदिर कर्मणि सम्मार्जनोपलेपाभ्याम सेक मंडल वर्तनैः गृह शुश्रूषणम मह्यम दासवत यदमायया अमानित्वमदं भित्वं कृतस्या परिकीर्तनम अपि दीपावलोकम मे नोपयुञ्ज्यान् निवेदितम् यद्यदिष्टतमं लोके यच्चाति प्रियमात्मनः तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते सूर्योऽग्निर्ब्रह्मणो गावो वैष्णवाखं मरुज्जलम् भूरात्मा सर्वभूतानि भद्रपूजा पदानि मे सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् आतिथ्येन तु विप्राग्र्ये गोष्वङ्गयवसादिना वैष्णवे बन्धु सत्कृत्या हृदिखे ध्याननिष्ठया वायौ मुख्यधिया तोये द्रव्यैस्तोय पुरस्कृतैः स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् धिष्ण्येष्वेष्वितिमद्रूपं शङ्खचक्रगदाम्बुजैः युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत् समाहितः इष्टापूर्तेन मामेवं यो यजेत समाहितः लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्भव नोपायो विद्यते सध्र्यं प्रायणं हि सतामहम् अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन सुगोप्यमपि वक्ष्यामि त्वं मे भृत्य सुहृत्सखा ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे एकादशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।